લક્ષણામૂલ ધ્વનિ તદ્વિભાવે યદ્યપિ શબ્દાર્થયોઃ નિર્ણયે કૃતે દોષગુણાલંકારાણાં સ્વરૂપમ અધિધાન્યમ તથાપિ ધર્મી પ્રદર્શિતે ધર્માણાં ધ્યેયોપાદેયતા જ્ઞાયતે ઇતિ પ્રથમં કાવ્યભેદાન આહ. यद्यपि शब्दार्थयोः निर्णये कृते शब्दः नामकः अर्थः नामकः इत्यादि निर्णयः कृतः अस्ति किल निर्णये कृते दोषगुणालङ्काराणां स्वरूपम् अभिधान्यं तदनन्तरं किं करणीयं दोषाणां गुणानां च कथनं करणीयम् अस्ति. क्रमशः शब्दः अर्थः दोषः गुणः इत्यादिक्रमेण वस्तुतः सर्वं वक्तव्यम् आसीत्. तथापि धर्मी प्रदक्षिते ધર્માણા હેયોપાદેયતા જ્ઞાયતે પ્રથમં કાવ્યભેદાનાં. એતે સર્વેપિ કાવ્યસ્ય ધર્માઃ, કસ્ય ધર્માઃ, કાવ્યસ્ય ધર્માઃ. ધર્મિણિ પ્રદર્શ્યતે, ધર્મિણિ ધર્મઃ ઇતિ અંગદ્વયે. મનુષ્યઃ ઇતિ ધર્મી, મનુષ્યે મનુષ્યત્વમ ઇતિ ધર્મઃ અસ્તિ. ધર્મી ધર્મઃ, એમ કાવ્યમ ઇતિ ધર્મી અસ્તિ. काव्ये बहवः धर्माः गुणः दोषः इत्यादयः सर्वे. अतः धर्मी प्रथमं प्रदर्श्यते सति धर्मः ज्ञायते एव. धर्मी प्रदर्श्यते कदा? धर्माणां हेयोपादेयता. ये धर्माः सन्ति एते सर्वे हेयाः वा उपादेयाः वा? हेयाः त्याज्याः, उपादेयाः गृहीतव्याः, स्वीकर्तव्याः इति ज्ञायते. धर्मी प्रथमं सम्यक् ज्ञातश्चेत् अनन्तरं धर्माः सन्ति किल, एते सर्वे धर्माः त्याज्याः वा अथवा गृहीतव्याः वा, उपादेयाः स्वीकर्तव्याः इति ज्ञायते इति कृत्वा प्रथमं काव्यभेदान. अतः प्रथमेव धर्मिविषयमेव स्पष्टीकरोति. धर्माणां सर्वेषां विषये अनन्तरं अविवक्षितवाच्यो यः,
अविवक्षितवाच्यो यः,
तत्र वाच्यं भवेत् ध्वनौ,
तत्र वाच्यं भवेत् ध्वनौ.
अर्थान्तरे सङ्क्रमितम्,
अर्थान्तरे सङ्क्रमितम्, अत्यन्तं वा तिरस्कृतम्.
धन्यालोके भवताम् एतद् अत्रैव अत्रैव सर् अत्रैव अत्रैव ध्वन्यालोके एतद् समाप्तं. कालप्रकाशानुसारं पुनः कथ्यते. अर्थान्तरे सङ्क्रमितम् अत्यन्तं वा तिरस्कृतम्. अर्थान्तरसङ्क्रमितवाच्यध्वनिः
अत्यन्तरस्कृतवाच्यध्वनिः.
अविवक्षितवाच्यः लक्षणामूलध्वनिः किला भवति. अविवक्षितवाच्यो यः, तत्र वाच्यं भवेत् धनु. वाच्यं वाच्यार्थः तत्र भवति, किन्तु अविवक्षितवाच्यः भवति. सः अर्थान्तरे सङ्क्रमितः अत्यन्तं तिरस्कृतः चिन्तितः. ध्वन्यालोके भवद्भिः पठितमस्ति, तदेव अत्र किञ्चित् भिन्नप्रकारे लक्षणामूलगूढव्यङ्ग्यप्राधान्ये सत्येव अविवक्षितवाच्यं यत्र सः ध्वनौ इत्यनुवादः. लक्षणामूल गूढव्यङ्ग्यं प्राधान्ये, लक्षणामूलध्वनिः तद् गूढं भवति, व्यङ्ग्यं भवति, तत्र तु अविवक्षितवाच्यं सः ध्वनौ इति अनुवादात्. सः ध्वनौ इति पूर्वं कारिकायां शब्दः उक्तः अस्ति, तस्मात् ध्वनिः इति ज्ञेयः. तत्र च वाच्यं क्वचित् अनुपयुज्यमानत्वात् अर्थान्तरे परिणमितम्. सो शब्दस्य वाच्यार्थः यः अस्ति सः अर्थः कुत्रचित् अनुपयुज्यमानत्वा, प्रकृतवाक्ये तस्य उपयोगः एव न भवति. उपयुज्यमानत्वात् अर्थान्तरे परिणतं भवति. अर्थान्तरसङ्क्रमितवाक्यध्वनिः इति वयं श्रुतवन्तः. तस्मिन् वाक्ये सः वाच्यार्थः यः अस्ति तस्य एतदेव न भवति वार्ता. तस्मिन् वाक्ये तस्य उपयोगः एव न भवति अनुपयोगित्वात्, अन्यस्मिन् अर्थे सङ्क्रान्तं भवति. यथा त्वामस्मि वच्मि विदुषाम्,
त्वामस्मि वच्मि विदुषाम्,
समवायोऽत्र तिष्ठति,
समवायोऽत्र तिष्ठति,
आत्मीयां महिमादाय,
आत्मीयां महिमादाय,
इति मन्त्र इति విదూషా సమవాయ అత్ర తిష్టతి అత్ర పండితానాం సమూహమేవ తిష్టతి అహం త్వాం వదామి ఆత్మీయాం మతిం ఆదాయ సమీచీనాం బుద్ధిని స్వీకృత్య మతిం ఆదాయ స్థితిం అత్ర విదేహి మన అత్ర దదాతు ఇది తాత్పర్యం అహం భవంతం ఉద్దేశ్య కించిత్ వదామి సమ్యక్ శృణోతు ఇది కీర్తి వాక్యం కంచిత్ జనం ఉద్దేశ్య అహం త్వాం వదామి ఇది వక్తవ్యం తం వదతి వదిన అహం త్వాం వదామి ఇది వక్తవ్యం నాస్తి తమ ఉద్దేశ్య వదతి వదత్యేవ కథనా పూర్వం అహం త్వాం వదామి అహం వచ్మి ఇది వక్తవ్యం నాస్తి వస్తుత వచ్మి ఇది పునః ఉక్తవాన్ తస్య కః అర్థః ఇత్యేత అత్ర వచనాది ఉపదేశాది రూపతయా పరిణమతి అహం భవంతం వదామి ఇత్యుక్తే అహం భవంతం ఉపదిశామి యత్కించిత్ వాక్యం మమ ముఖాత్ ఆగచ్చతి చేత తస్య వచనం ఇచ్చే వార్త అహం యత్కించిత్ వదామి ఇచ్చే పునః వదామి ఇచ్చే వక్తవ్యం నాస్తి నవా అత పునః వదామి ఇచ్చే అహం భవంతం ఉపదిశామి ఇది తాత్పర్యం అత్ర వచనాది ఉపదేశాది రూపతయా పరిణమతి పరిణామం ప్రాప్తుంది క్వచిత్ ఏతద్ ఉదాహరణం ఇది చేత అర్థాంతరే సంక్రమిత వచనాది ఉపదేశాదు అర్థాంతరే కఠినమతం ఇత్యుక్తే కథయతి ఇత్యస్య అర్థ ఉపదిశ్యతి ఇత్యర్థ అన్యస్మిన్ అర్థే సంక్రాంతం అర్థాంతరే సంక్రమితం ఇత్యస్య ఏతద్ అర్థాంతరే పరిణమితం క్వచిత్ అత్యంతం తిరస్కృతం భవతి అనుపపద్యమానతయా అత్యంతం తిరస్కృతం భవతి వాక్యార్థ న సంగచ్చతే తిరస్కారః భవతి తస్య యథా ఉపకృతం బహు తత్ర కిముచ్యతే
ఉపకృతం బహు తత్ర కిముచ్యతే
సుజనతా ప్రథితా భవతా పరం
సుజనతా ప్రథితా భవతా పరం
విదధీదృశమేవ సదా సఖే
విదధీదృశమేవ సదా సఖే
సుఖితమాస్వతశ్చరదాం శతం
సుఖితమాస్వతశ్చరదాం శతం
కశ్చన జనః ఆగత్య ఏదం బహు క్రీడితవాన్ ఏతత్ గృహమేవ నష్టం కృతవాన్ అస్తి ఇది చింతయతి సహ ఏవ జనః పురతః ఆగతః తం జనం ఉద్దేశ్య వదన్ అస్తి ఉపకృతం బహు తత్ర ఓ బహు ఉపకారం కృతవాన్ అస్మి కిం ఉచ్యతే కిం వక్తవ్యం ఇతః పరం సుజనతా ప్రసిదా భవతా పరం భవతః సౌజన్యం అత్యంతం ప్రసిద్ధం అభవత్ అహం కిం వదామి ఈదృశమేవ విదధత్ ఏతకే ఏదాదృశ కార్యమేవ కురువన్ శరదాం శతం సుఖితం మాత్వా శతం వర్షాణి సుఖేదు యా సాక్షాత్ అపకారం కృతవాన్ అస్తి తయో పురతః ఆగతవాన్ అస్తి తమ్ ఉద్దేశ్య బహు సమీచీనం కార్యం కృతవాన్ ఏదాదృశం కార్యమేవ కురువన్ శతం వర్షాణి తిష్టతు వస్తుతః యతః సః అపకారీ ఏవ అస్తి అపకారీ అస్తి ఇతోపి సమ్యక్ జానాతి ఏం సతి ఏం వదతి వా వదతి ఉక్తవాన్ తర్హి కథనస్య కః అర్థః ఇతి చేత్ అనుక్షణం మ్రియస్వ ఇతి తాత్పర్యం వదతి తావదేవ ఏతత్ అపకారీణం ప్రతి విపరీతలక్షణయా గచ్చిద్వక్తి ఏం వదతి కింటు విపరీతలక్షణ కః అర్థః ఇతి చేత్ అనుక్షణం మ్రియతాం ఇతి తాత్పర్యం యతః ముఖ్యార్థः అత్ర న సంగచ్ఛతే ఏది సహ అపకారీ న స్యాత్ శక్యన చేత్ సమీచీనం ఆశీర్వాద వచనం కింటు ఏషః అపకారీ అస్తి ఇది కృత్వా ముఖ్యార్థः న సంగచ్ఛతే అతః అత్యంతం తిరస్కృతం లక్ష్మణ పృష్ఠసంఖ్యా అష్టమి అష్టమం పృష్టం అభిరామూలధ్వని తద్విభాగశ్చ పూర్వ ముక్తద్వయం విదత్తే తద్ లక్షణామూలధ్వని అభిరామూలధ్వని వివక్షితం చాన్యపరం
వివక్షితం చాన్యపరం
వాచ్యం యత్ర పరస్తు
వాచ్యం యత్ర పరస్తు
అపరం వివక్షితం అన్యపరం వాచ్యం ఇతరి పూర్వం ధన్యాలపై ఆగతం अविवक्षित वाच्यम सुरक्षित अन्य परम वाच्यम तथा भेदर अन्य परम नाम व्यंग्यनिष्ठम भवे व्यंग्यनिष्ठम भवति चेत् कोपि कोप्यतम लक्ष्य क्रम व्यंग्यो अहम लक्ष्यक्रमध्वनि तं लक्ष्यक्रमध्वनि तत्रागतमस्ति यत् अहं लक्ष्यक्रमव्यङ्ग्यः तं लक्ष्यक्रमव्यङ्ग्यः द्विधा भवति अलक्ष्येति न खलु विभावानुभावव्यभिचारिणः एव रसः अत्र विभावानुभाविव्यभिचारिणः सन्ति किल विभावानुभावविचारिभावा एते सन्ति किल सन्ति किल ते एव रसः न अपि तु रसः तैः इति अस्ति क्रमः तैः रसः निष्पद्यते अनन्तः ते विभावानुभावविचारिभावाः सन्ति ते एव रसः न तैः रसः निष्पद्यते इति अग्रे कथ्यते अस्ति क्रमः स तु साध्यत्वात् न लक्ष्यते साध्यत्वात् किमस्ति साध्यवात् इत्यस्ति वस्तुतः तद् साध्यं साधनीयमस्ति अतः साधनीयमस्ति इति कारणतः तद् न लक्ष्यते अनन्तरम् अग्रे अहं लक्ष्यक्रमस्य विभागः भवतां पूर्वमपि ध्वन्यालोके आगतमस्ति अहं लक्ष्यक्रमध्वनेः उदाहरणानि कानि इत्युक्ते सर्वेपि रसाः विभावानुभावादयः तत्र रसभावतदाभासभावतदाभासाङ्ख्यादिरक्रमः अक्रमः अक्रमः नाम अहं लक्ष्यक्रमः अहं लक्ष्यक्रमध्वनि अक्रमः इत्यस्ति किल सः कः इति चेत् रसभावशान्त्यादि नाम रसः भावः तदाभासः रसाभासः भावाभासः तथैव भावशान्तिः इत्यादि आदिपदेन भावशबलता इत्यादि एते सर्वेपि अक्रमाः सक्रमाक्रमाः तथा अक्रमः नाम अहं लक्ष्यक्रमः इत्यर्थः अहं लक्ष्यक्रमः सो रसभावतदाभासभावशान्त्यादिः अक्रमः बिन्दुः रसादि अलङ्कार अयं रसादिः भिन्नः एव अलङ्कारात् भिन्नः एव अलङ्काराः भवन्ति तस्मात् एते भिन्नाः एव भवन्ति किमर्थम् इति चेत् अलङ्कार्यतया स्थितः एषः अलङ्कार्यः भवति अन्ये सर्वेपि अलङ्काराः भवन्ति मनुष्यः अलङ्कार्यः आभरणानि सर्वाणि अलङ्काराः मनुष्यः अलङ्कार्यः एवमेव रसः भावः एते सर्वेपि अलङ्कार्याः नाम प्राणभूतेन एते प्राणरूपेण एते स्थिताः अलङ्कारास्तु अलङ्कारितया स्थितः आदिग्रहणात् भावशान्त्यादिः आदिशब्दस्य ग्रहणात् भावोदय भावसन्धि भावशबलत्वानि भावोदयः भावसन्धिः भावशबलता इति उदाहरणानि दर्शयति अनन्तरं तानि गृहीतव्यानि प्रधानतया यत्र स्थितः रसादिः तत्र अलङ्कार्यः यत्र रसादिः एव प्रधानतया तिष्ठति सः अलङ्कार्यः यथा उदाहरिष्यते अग्रे अन्यत्र तु प्रधाने वाक्यार्थे यत्र अङ्गभूतो रसादिः तत्र गुणीभूतव्यङ्ग्ये नाम कुत्रचित् रसादिः अपि अलङ्कारतया भवितुमर्हति कुत्रचित् प्रधाने वाक्यार्थे अन्यः वाक्यार्थः एव प्रधानमस्ति तत्र एषः रसादिः अङ्गभूतः भवितुमर्हति यथा गुणीभूतलिङ्गे तदेव सेवकस्य विवाहार्थं गतः राजा यथा अप्रधानः भवति तद्वत् रसः अस्ति तथापि सः रसः कुत्रचित् मुख्यवाक्यार्थे अप्रधानः भवति स एव गुणीभूतलिङ्गः इति कथ्यते रस रसवत् प्रेय ऊर्ध्वस्ति समाहितादयः अलङ्कारः
तदा तस्य नाम किम् उच्यते प्रथमदलङ्कारः त्रयोऽलङ्कारः ऊर्ध्वस्य अलङ्कारः समाहितालङ्कारः इत्यादि ते च गुणीभूतव्यङ्ग्यादिनानि उदाहरिष्यन्ते यदा गुणीभूतव्यङ्ग्यमहं बोधिष्यामि तदा एतेषां सर्वेषाम् उदाहरणं दास्यामि तत्र रथानां स्वरूपमाः रथस्वरूपमाः तर्हि रथो नाम कः इति रथस्य स्वरूपं वदति कारणान्यथ कार्याणि
कारणान्यथ कार्याणि
सहकारीयानि च
सहकारीयानि च
तस्यादे स्थायिनो लोके
तस्यादे स्थायिनो लोके
तानि ते नाट्यकाव्ययोः
तानि ते नाट्यकाव्ययोः
विभावानुभावास्तत्
विभावानुभावास्तत्
सत्यन्ते विचारिणः लोके यत्किमपि एकं कार्यं सिद्धं भवेत् इत्युक्ते तदर्थं कारणानि कानिचित् अपेक्षितानि भवन्ति कानिचित् कार्याणि अपेक्षितानि भवन्ति भोजनं करणीयम् इति चेत् तदर्थं कानिचित् कारणानि कारणानि इत्युक्ते साधनानि इति चिन्तयति सो कानिचित् कार्याणि प्रथमम् आवश्यकानि भवन्ति अन्यानि कानिचित् सहकारीणि आवश्यकानि भवन्ति तत्र भिन्नभिन्नप्रकारेण सहकारः लभ्यते तादृशानि सहकारीणि अपि आवश्यकानि भवन्ति लोके चेत्तेषां कारणानि कार्याणि इति नामानि लोके अन्यस्मिन् प्रकारे कारणानि अथ कार्याणि सहकारीणि सहकारीणि कारणानि इत्येव कानि यानि सन्ति तानि लोके नाट्ये चेत् अथवा काव्ये चेत् तानि एव लोके चेत् कारणानि कार्याणि इति नाम नाट्ये काव्ये चेत् तानि एव विभावाः अनुभावाः विचारिणः इति कथ्यन्ते तर्हि कार्याणि इत्युक्ते विभावः कारणानि इत्युक्ते अनुभवः सहकारिकारणानि इत्युक्ते सो एतानि त्रीणि स्मर्तव्यानि एते भवन्ति एतैः विभावाद्यैः व्यक्तः स्थायीभावः रसः भवति कारणानि कार्याणि कारणानि सहकारीणि सर्वाणि भवन्ति एतैः सर्वैः मिलित्वा अनन्तरं किञ्चित् सम्पद्यते एवमेव विभावाः अनुभावाः व्यभिचारिभावाः एते सर्वैः भवन्ति एतैः सर्वैः किं भवति इति चेत् स्थायीभावः एव अनन्तरं व्यक्तः भवति सः एव रसः इति कथ्यते इत्युक्ते सहृदयः यः अस्ति तस्य अन्तरङ्गे स्थायीभावः भवति स्थायी शब्दः एव वदति निरन्तरं तिष्ठति स्थायी सर्वदापि इदानीं नवरसाः सन्ति किल नवरसानां मूलमिदं स्थायीभावः स्थायीभावः सर्वदापि भवति किन्तु विभाव अनुभावविचारिणां संयोगकारणात् अग्रिमं चिन्तदेव अस्ति तत्पूर्वं यदा भवति तस्मिन् क्षणे एते सर्वेपि मिलित्वा रसरूपं प्राप्नोति एकञ्चित् कालम् एकघण्टां यावत् अर्धघण्टां यावत् भवेत् पुनः रसः विलीयते इति चिन्तयतु रसः नास्ति अनन्तरं साईभावस्तु अस्ति एव साईभावः भवेदेव साईभावः इति न भवति रसः न भवति अतः रसः उत्पन्नः इति न उच्यते रसः निष्पद्यते इति वदति उत्पन्नं नाम पूर्वं यत् नास्ति तादृशं किञ्चित् आगतम् उत्पन्नम् इति वदामः एतत् तथा न रसः निष्पद्यते इति वदति अतः विभाव अनुभावविचारिणः ये सन्ति तैः रसः व्यक्तः भवति इति एतत् एकः श्लोकोपि मुख्यः भवतः एते श्लोकद्वयम् अग्रिमणि इत्युक्ते काव्यप्रकाशकारस्य आशयानुसारं रसः कः इति चेत् एतत् लेखनी विभावाः अनुभावाः व्यभिचारिणः कथ्यन्ते किल तैव तैः व्यक्तः विभावाद्यैः व्यक्तः स्थायीभावः एव रसः इति स्मर्यते उक्तं हि भरतेन भरतः नाट्यशास्त्रे उक्तवान् अस्ति विभावानुभावविचारिसंयोगात् रसनिष्पत्तिः ಪರಪತ್ಯ ಏತದ್ ವಾಕ್ಯಂ ಅತ್ಯಂತಂ ಪ್ರಸಿದ್ಧ. ವಿಭಾವ ಅನುಭಾವ ವಿಚಾರಿ ಸಂಯೋಗಾದ ರಸ ನಿಷ್ಪತ್ತಿ. ಏತತ್ ಪೂರ್ವಲೇ ಅತಿ ವಿವರಣ ವಿಭಾವೈ ವಿಭಾವೈ ನಾಮ ಲಲನ ಉದ್ಯಾನಾದಿಭಿ ಆಲಂಬನ ಉದ್ದೀಪನ ಕಾರಣೈ. ತತ್ರ ವಿಭಾವ ಪುನಃ ನಿಧಾವು ಆಲಂಬನ ವಿಭಾವ ಉದ್ದೀಪನ ವಿಭಾವ. ಆಲಂಬನ ವಿಭಾವ ನಾವು ಕೇಳಿದ್ದೆ ತಸ್ಯ ಆಶ್ರಯ ಭೂತ ದುಷ್ಯಂತ ದುಷ್ಯಂತ ಸಮಂತೆ ಯಹ ರತಿಭಾವ ತೇ ತಸ್ಯ ಆಲಂಬನ ಶಕುಂತಲ. ಎಂತಸ್ಯ ಮನಸ್ಸಿ ರತಿ ಶೃಂಗಾರ ಭಾವ ಕಸ್ಯ ವಿಷಯ ಉತ್ಪನ್ನ ಆಗದೆ ಶಕುಂತಲ ಅಥ ತದ್ ಆಲಂಬನ ಇತಿ ಕಥ್ಯತೆ. ತಥೈವ ಆಲಂಬನಮಸ್ತಿ ತಥಾಪಿ ಕಸ್ಮಿಂಶ್ಚಿತ್ ಪ್ರಸಂಗೆ ತಸ್ಯ ಉದ್ದೀಪನ ಭವತಿ. ತತ್ರ ಉದ್ದೀಪನಾನಿ ಅನಿಶ್ಚಿತ ಭವಂತಿ ಯಥಾ ಚಂದ್ರಿಕಾ ಭವತಿ ಉದ್ಯಾನ ಭವತಿ ಉದ್ದೀಪನ ಆಗತ್ತೆ. ಅತಃ ಲಲನ ಉದ್ಯಾನಾದಿ ಆಲಂಬನ ಉದ್ದೀಪನ ಕಾರಣಿ ಲಲನ ಇದೆ ಆಲಂಬನ ಕಾರಣ ತದೆ ಉದ್ಯಾನ ಮಿತಿತೋ ಉದ್ದೀಪನ ಕಾರಣ ತೈ ಸ್ಥಾಯಿ ನಾಮ ರಕ್ತ್ಯಾಧಿಕ ಭಾವ ಜನಿತ. ಅನಂತರ ಅನುಭಾವೈ ಅತಃ ಜನಿತ ನ ಜಾತ ಜನಿತ ನ ನಿಷ್ಪನ್ನ ಇದು ವರ್ತದೆ ಭೋಗ. ಅನುಭಾವೈ ಅನುಭಾವ ನಾಮ ತರಿಗೆ ಕಾರ್ಯ ಎಂಬವೇ ವಿಭಾವ ನಮ್ಮ ಕಾರಣ ಅನುಭವ ನಮ್ಮ ಕಾರ್ಯ. ಅನುಭವ ಹೇಗೆ ಕಾರ್ಯಗಳಲ್ಲಿ ಕಾರ್ಯ ಭವಂತ ಕಟಾಕ್ಷ ಭುಜಾಕ್ಷೇಪ ಪ್ರಭೃತಿ ಕಟಾಕ್ಷ ಭುಜಾಕ್ಷೇಪ ಇತ್ಯಾದಿ ತಾದೃಶೈ ಕಾರ್ಯೈ ಪ್ರತೀತಿ ಯೋಗ್ಯ ಸದಃ ಎಷ್ಟು ಕಾರ್ಯಾಣ ಕಾರಣತಃ ಪ್ರತೀತಿ ಯೋಗ್ಯ ಅಸ್ಮಿನ್ ರಸಃ ನಿಷ್ಪನ್ನ ಅಸ್ತಿ ಕಥಂ ಪ್ರತೀತಿರ್ಭವತಿ ಕಾರಣ ಪ್ರತೀತಿ ಯೋಗ್ಯ
ಕಟಾಕ್ಷ
ಕಟಾಕ್ಷ ಪ್ರತೀತಿ ಯೋಗ್ಯ ಕೃತ. ಅನಂತರ ವ್ಯಭಿಚಾರಿ ನಿರ್ವೇದಾದಿ ವ್ಯಭಿಚಾರಿ ಭಾವ ನಮ್ಮ ತೇನ ನಿರ್ವೇದ. ಅನಂತರ ಸಹಕಾರಿ ಉಪಚಿತ ಸಹಕಾರಿ ಕಾರಣ ಉಪಚಿತ ವೃದ್ಧಿ ಗಮಿತ ತಾದೃಶ ಮುಖ್ಯ ವೃತ್ತಿಯ ರಾಮಾದೌ ಅನುಕಾರ್ಯೆ ತದ್ರೂಪತ ಅನುಸಂಧಾನ ನರ್ತಕೇ ಪ್ರತೀಯಮಾನ ರಥ. ಪ್ರಥಮ ಕಿಂಬೋದೆ ಶ್ರೀರಾಮ ಅನುಕಾರ್ಯ ಏಕ ನಟ ಅಸ್ತಿ ಸಹ ನಟ ತಸ್ಯ ಅನುಕರಣ ಕರೋತಿ ಶ್ರೀರಾಮಸ್ಯ ಅನುಕರಣ ಕರೋತಿ ಶ್ರೀರಾಮ ಸೀತಾ ತೇಷಾಮ ಅಭಿನಯ ಅನುಕುರುವಂತೆ ಇಲ್ಲ. ಶ್ರೀರಾಮ ಅನುಕಾರ್ಯ ಏಷ ನಟ ಅಸ್ತಿ ಸಹ ಅನುಕರ್ತ. ಅತಃ ಅನುಕಾರ್ಯೇ ರಾಮಾದು ಅನುಕಾರ್ಯ ರಾಮ ಅಸ್ತಿ ತಸ್ಮಿನ್ ಅನುಕಾರ್ಯೇ ತದ್ರೂಪತಾ ಅನುಸಂಧಾನ ರಾಮೇ ವಸ್ತುತಃ ಸೀತಾ ವಿಷಯೆ ತತ್ರ ಕಂ ರತಿ ಆಲಂಬನಮಸ್ತಿ ಸೀತಾಯಾ ವಿಷಯ ಶೃಂಗಾರಸಃ ರಾಮೇ ಉತ್ಪನ್ನ ಭವತಿ. ತದ್ರೂಪತಾ ಅನುಸಂಧಾನ ಏಷ ಅನುಕರ್ತ ತಸ್ಯಾಹ ರೂಪಸ್ಯೇವ ಅನುಸಂಧಾನಂ ಕುರ್ವನ್ ಅಸ್ತಿ ತಸ್ಮಾತ್ ಶಾಂತಲಾ ಅರ್ಜುನ ಆಗಚ್ಛತಿ. ಶ್ವಃ ಅಪಿ ನಾಗಚ್ಛತಿ ಪರಶ್ವ ಪರೀಕ್ಷಾ ಅಸ್ತು ವಾ. ತದ್ರೂಪತಾ ಅನುಸಂಧಾನ ರಾಮಸ್ಯ ರೂಪಸ್ಯೇವ ಅನುಸಂಧಾನಂ ಕರೋತಿ ಅಹಮೇವ ರಾಮಃ ಇತಿ ಚಿಂತೆಯನ್ ಅಸ್ತಿ ಅತಃ ತಸ್ಯ ಅನುಸಂಧಾನಾತ್ ನರ್ತಕೇಪಿ ಪ್ರತೀಯಮಾನ ನರ್ತಕೇಪಿ ತಸ್ಯ ಪ್ರತೀತಿ ಭವತಿ. ರಾಮ ಅನುಕಾರ್ಯ ತಸ್ಮಿನ್ ತು ಸೀತಾಂ ದೃಷ್ಟ್ವಾ ತಸ ಪ್ರತೀತಿ ಭವತ್ಯೇವ. ಅನುಕರಣಕರ್ತಾ ಯಃ ಅಸ್ತಿ ಸಹ ಅಹಮೇವ ರಾಮ ಇತಿ ಅನುಸಂಧಾನಂ ಕರೋತಿ ತಸ್ಮಾತ್ ಅಸ್ಮಿನ್ ಅಪಿ ರಸಃ ಜಾಗರ್ತಿ ಇತಿ ಭಟ್ಟಲೋಲ್ಲಟ ಪ್ರಬೋದಯ. ಕಿಂಚಿತ್ ವಿಚಾರ ಭೇದ ಅಸ್ತಿ ಭಟ್ಟಲೋಲ್ಲಟಾದಯ ಏಕಂ ಲೋಲ್ಲಟ ಕುತ್ರಾಪಿ ಏಕಂ ನಾಮ ಸರ್ಸ್ಮರಣಿ ಲೋಲ್ಲಟ ಇತಿ ನಾಮ ನೃಷನಿಷ್ಪತ್ತಿ ವಿಷಯ ಶ್ರೀಶಂಕುಕ ಅಭಿಪ್ರಾಯ ಅನ್ಯ ಶ್ರೀಶಂಕುಕ ತಭಿಪ್ರಾಯ ಅಸ್ತಿ ಪುನಃ ಕಷ್ಟ ಭೇದ ಸಹ ವದತಿ
ರಾಮ ಏವ ಅಯಂ ಎಂಪಶ್ಯನಸ್ತೆ ರಾಮ ಏವ ಅಯಂ. ಅನಂತರ ಅಯಮೇವ ರಾಮ ಇದೆ, ರಾಮ ಅಯಂ ಅಯಮೇವ ರಾಮ ಇದೆ, ಅವನೇ ಇವನು ಇವನೇ ಅವನು ರಾಮೇವ ಅಯಂ ಅಯಮೇವ ರಾಮ ಇದೆ. ನರಾಮೋಯಂ ಇದೆ ಔತ್ತರ ಕಾಲಿಕೆ ಬಾಧೆ ರಾಮೋಯಂ ರಾಮಸದೃಶೋಯಂ ಇತಿ ಚ ಸಮ್ಯಕ್ ಮಿಥ್ಯಾ ಸಂಶಯ ಸಾದೃಶ್ಯ ಪ್ರತೀತಿಭ್ಯ ವಿಲಕ್ಷಣಯ ಚಿತ್ರತುರದಾದಿ ನ್ಯಾಯೇನ ರಾಮೋಯಂ ಇತಿ ಪ್ರತೀತ್ಯ ಗ್ರಾಹ್ಯೇನ ತೇ. ಕಿಂ ಭವತಿ ಅಯಮೇವ ರಾಮ ರಾಮಹನ ಇತಿ ಕಿಂಚಿತ್ ಸಂಶಯ ಭವತಿ. ಅನಂತರ ಔತ್ತರ ಕಾಲಿಕೆ ಬಾಧೇ ಸತಿ ಏಷೇ ರಾಮ ಇತಿ ಚಿಂತಿತವಾನ್ ಭವತಿ ತಥಾಪಿ ಅನಂತರ ಕಾಲೆ ತಸ್ಯ ಬಾಧಾ ಭವತಿ. ಯಕ್ಷಗಾನಂ ಪಶ್ಯನ್ ಅಸ್ಮಿ ತತ್ರ ಕೋಪಿ ರಾಮಸ್ಯ ಪಾತ್ರಂ ಕೃತವಾನ್ ಅಸ್ತಿ ಅಯಮೇವ ರಾಮ ಇತಿ ಚಿಂತಿತ ಓ ರಾಮ ಹೇವ ಏ ಹೇವ ರಾಮ ಇತಿ ಚಿಂತಿತವಾನ್ ಕಿಂಚಿತ್ ಏವಂ ದೃಷ್ಟವಾನ್ ತವ ನಾನ ಮಧ್ಯೆ ಉಪವಿಷ್ಟಾನ ಇತಿ ಭಾನಂ ಭವತಿ. ಆ ಏಷ ರಾಮಹನ ಮಂಗಳ ಭವತಿ ಲಿಜಾನ ಏವಂ ರಾಮೋಯಂ ಇತಿ ಔತ್ತರ ಕಾಲಿಕೆ ಬಾಧೆ ಜಾತೇ ಸತಿ ರಾಮೋಯಂ ರಾಮ ಸದೃಶೋಯಂ ರಾಮಹನ ರಾಮ ಸದೃಶ ಇತಿ ಎಂ ಸಮ್ಯಕ್ ಮಿಥ್ಯಾ ಸಂಶಯ ಸಾದೃಶ್ಯ ಪ್ರತೀತಿ ಭವತಿ. ಅಸಂಶಯ ಮಿಥ್ಯಾ ಇದಿ ಅನಂತರ ಸಂಶಯ ಅನಂತರ ಸಾದೃಶ್ಯಮಸ್ತಿ ಏನು ಪ್ರತೀತಿ ಭವತಿ ತಾದೃಶ ಪ್ರತೀತಿಭ್ಯ ತತಃ ವಿಲಕ್ಷಣೆಯ ಚಿತ್ರತುರಗಾದಿ ನ್ಯಾಯೇನ ಚಿತ್ರತುರಗ ನ್ಯಾಯ ಇತ್ಯೇನ ನ್ಯಾಯೇನ ಅಯಂ ರಾಮ ಇತಿ ಪ್ರತೀತ್ಯ ಗ್ರಾಹ್ಯೇನ ಹೇ. ಚಿತ್ರತುರಗ ನ್ಯಾಯ ಇತ್ಯುಕ್ತೆ ತುರಗವೆಂದರೆ ಕುದುರೆ ಎಂದರ್ಥ, ಚಿತ್ರತುರಗವೆಂದರೆ ಚಿತ್ರಿಸಿದ ಕುದುರೆ ಎಂದರ್ಥ. ಕುದುರೆಯ ಚಿತ್ರವನ್ನು ನೋಡಿ ಅದು ವಾಸ್ತವಿಕವಾದ ಕುದುರೆ ಎಂದು ಭಾವಿಸುವುದಿಲ್ಲ, ಅಂತೆಯೇ ಇದು ಕುದುರೆ ಅಲ್ಲ ಎಂದೂ ಭಾವಿಸುವುದಿಲ್ಲ. ಇದು ಕುದುರೆಯಂತಹ ವಸ್ತು ಎಂದಾಗಲಿ ಇದು ಕುದುರೆ ಹೌದೋ ಅಥವಾ ಅಲ್ಲವೋ ಎಂದಾಗಲಿ ಭಾವಿಸುವುದಿಲ್ಲ. ಇಂದು ಒಂದು ವಿಲಕ್ಷಣವಾದ ಭಾವನೆ ಇರುತ್ತದೆ. ಇಂತಹ ಭಾವನೆ ಉಂಟಾಗುವ ಕಾವ್ಯನಾಟಕಾದಿಗಳ ಸಂದರ್ಭದಲ್ಲಿ ದೃಷ್ಟಾಂತವಾಗಿ ಚಿತ್ರದುರದ ನ್ಯಾಯವನ್ನು ಹೇಳುತ್ತಾರೆ. ಅಂದ್ರೆ ಹೌದು ಅಲ್ಲ 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 ಅಂತನೂ ಅಲ್ಲ, ವಿಚಿತ್ರ ಭಾವ ಕಷ್ಟ ಭವತಿ ತಥಾ ಅತ್ರ ಭವತಿ ಪ್ರತೀತಿಯ ಗ್ರಾಹ್ಯೇನತೆ ಏನು ಪ್ರತೀತಿ ಭವತಿ ತೇನ ಗ್ರಾಹ್ಯೇನತೆ ಕಿಂ ಭವತಿ ಇದೆ ವಾಕ್ಯವನ್ನು ಸಮಾಪ್ತ ಅಗ್ರೇ ಇದ್ದಾನೆ. ಸೇಯಂ ಮಮಾಂಗೇಶು ಸುಧಾರ ಸಕ್ಷಟ ಮನೋರಸಿ
ಪ್ರಾಣೇಶ್ವರಿ
ಲೋಚನ ಗೋಚರಂ ಗತ ಕಾಚಿತ್ ಮಮ ಪ್ರಾಣೇಶ್ವರಿ ಪ್ರೇಯಸಿ ಲೋಚನ ಗೋಚರ ಗತ ದೃಷ್ಟೇ ಭವತಃ ಆಗಮತಿ. ಕೀದೃಶಿ ಚೇತ್ ಮಮ ಅಂಗೇಶು ಸುಧಾರಸ ಕ್ಷಟ ಮಮ ಅಂಗೇಶು ಶರೀರಸ್ಯ ಅಂಗೇಶು ಸರ್ವತ್ರ ಸುಧಾರಸಸ್ಯ ಅಮೃತರಸಸ್ಯ ಕ್ಷಟ ಕ್ಷಟ ನಾಮ ಕಾಂತಿ ಅಮೃತರಸಸ್ಯ ಪಾತನ ಮನೆ ತದ್ವದಸ್ತಿ ಯಾನಿ ತಾಂ ಪಶ್ಯಾಮಿ ಚೇತ್ ಮಮ ಶರೀರೇ ಅಮೃತರಸಸ್ಯ ಕಿಂ ಪಾತನಂ ಭವತಿ ಇವ ತಥಾ ಅಸ್ತಿ ಮಮ ಅಂಗೇಶು ಸುಧಾರಸ ಕ್ಷಟ ಏಷ ಅಸ್ತಿ ಸುಪೂರ ಕರ್ಪೂರ ಶಲಾಕಿಕೋ ದೃಶೋ ನೇತ್ರಯೋಃ ಕೃತೆ ಶಲಾಕಿಕ ಕೀದೃಶಿ ಶಲಾಕಿಕ ಕರ್ಪೂರ ಶಲಾಕಿಕ ಕರ್ಪೂರ ನಾಮ ಸಖ್ಯಕರ್ಪೂರ ತಸ್ಯ ದೃಷ್ಟೌ ಲೇಪನೇನ ನೇತ್ರೆ ಶೀತಲೆ ಭವತಃ ಜೀವನಿ ಆರತಿ ಹಾಕುವ ಕರ್ಪೂರ ಅಲ್ಲ
ಕರ್ಪೂರ ನಿರಂಜನ ಕರ್ಪೂರ ನಿರಂಜನ
ಪಟ್ಟಕರ್ಪೂರ ಐತಿ ನೇತ್ರಸ್ಥಾಪನೆಯ ಶೀತಲಂ ಭವತಿ ತಾದೃಶ ತಾದೃಶ ಸುಪೂರ ಕರ್ಪೂರ ಶಲಾಕಿಕ ತಾದೃಶ ಪೂರಣಂ ಭವತಿ ತಾದೃಶಿ ಕರ್ಪೂರ ಶಲಾಕಿಕ ದೃಶ್ಯ ತಾದೃಶಿ ಮನೋರಥ ಶ್ರೀ ಮಮ ಮನೋರಥ ಲಕ್ಷ್ಮೀ ಮನಸಃ ಮನೋರಥಿ ಶರೀರ ರೂಪಂ ದೃತ್ ಆಗತೋತಿ ತಾದೃಶಿ ಪ್ರಾಣೇಶ್ವರಿ ಲೋಚನ ಗೋಚರಂ ಗತ ಮಮ ನೇತ್ರಯೋ ಪುರತಃ ಆಗತವತಿ ದೃಷ್ಟಿಯ ಪುರತಃ ಆಗತವತಿ ಶಿವತನಕ್ಕೆ ಏಕಂ ವಾಕ್ಯಂ ದ್ವಿತೀಯ
ದೈವಾರಹ ಮಧ್ಯತಯ ದೈವಾರಹ ಮಧ್ಯತಯ
ಪಲಾಯತನ
नेत्रया वियुक्तश्च अविरलविलोलजलदःकालः दैवात् अहम् अद्य तया वियुक्तः मम प्रेयस्या अहम् अद्य वियुक्तः अस्ति कीदृश्या तया इति चेत् चपलायतनेत्रया तस्याः नेत्रे अत्यन्तं चपले अत्यन्तम् आयते आयते विशाले तथैव चपला एकं चञ्चलनेत्रा अस्ति तथैव आयतनेत्रा अस्ति चपलाय चपलायतनेत्रया तया अहं वियुक्तः अस्मि इदानीं कः कालः इति चेत् अविरलविलोलजलदः अविरलं जलं वर्षति तादृशः जलदः मेघः विलोलः चञ्चलः विरलं चञ्चलतया तत्सतः गच्छति तादृशः मेघः अस्ति तादृशः वर्षाकालः सम्पादकः इति वदति इत्युक्ते प्रथमवाक्यमिदस्ति तत्र किमस्ति सा दृष्टेः पुरतः आगता इति सङ्गमः उच्यते द्वितीयः श्लोकः यः अस्ति तत्र तु वियोगः एवम् इत्यादिषु इति उदाहरणं कृत्वा इत्यादि काव्यानुसन्धानबलात् यः पठन् अस्ति अथवा नाटकादिकं पश्यन् अस्ति स एतादृशकाव्यानाम् अनुसन्धानं कृतवन् अस्ति अतः काव्यानुसन्धानबलात् शिक्षाभ्यास निर्वर्तित स्वकार्यप्रकटनेन च यः नटः अस्ति किल सः नटः सम्यक् शिक्षणं प्राप्तवान् कथम् अभिनयः करणीयः शृङ्गारस्य प्रकटीकरणं कथं करणीयम् इत्यादि शिक्षां प्राप्तवान् अस्ति अभ्यासमपि कृतवान् अस्ति अतः शिक्षा अभ्यासनिर्वर्तित स्वकार्यप्रकटनेन तेन तस्य कार्यस्य प्रकटनं कुर्वन् अस्ति नटेनैव प्रकाशितैः कारणकार्यसहकारिभिः सो कारणं कार्यं सहकारि कार्यं सर्वमपि नट एव दर्शयन् नटेनैव दर्शितैः नटेनैव प्रकाशितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथा अनभिमान्यैः वस्तुतः ते सर्वेपि कृत्रिमः
नटनं
तस्य नटनं कुर्वन्नस्ति तद् वस्तुतः किमपि न कारणमपि नास्ति तथापि कृत्रिमाणि एव चेदपि सत्यम् इति भावना भवति किं भवति यक्षगाने वदति किल ओ महत् अरण्यमस्ति एवं पुरतः सर्वे मृगाः दृश्यन्ते सर्वे जनाः इष्टाः भवन्ति कृत्रिमं चेदपि तथा न ज्ञायते कृत्रिमैरपि तथा अनभिमन्यमाने तथा न ज्ञायते तादृशैः विभावादिशब्दविपदेशैः संयोगात् तेषां संयोगात् गम्यगमकभावरूपात् अनुमीयमानोऽपि वस्तुतः एतत् अनुमीयते गम्यम् एकं गमकम् इति तस्मात् कारणात् अनुमानं क्रियते अनुमानं नाम किमस्ति पर्वतो वह्निमान् धूमात् इति एकम् अनुमानं वदति पर्वते वह्नी किमर्थं कारणं वदामि चेत् धूमा पूर्वं दृष्टवान् अस्ति धूमः चेत् अग्निः भवति किं तद्वद् गम्यगमकभावः अत्र शृङ्गारः अस्ति कथमस्ति चेत् अहम् अनुमानं करोमि गम्यगमकभावः अस्ति गम्यगमकभावरूपात् अनुमीयमानोऽपि वस्तुसौन्दर्यबलात् रसनीयत्वेन अन्यानुमान अन्यानुमीयमानविलक्षणः स्थायित्वेन सम्भाव्यमानः रत्यादिः भावः तत्र असन्नपि सामाजिकानां वासनया जर्यमाणः रसः एवं वस्तुतः न विद्यते चेदपि एवं सर्वं भवति नटः एवं सर्वं करोति इति कारणतः वस्तुतः सामाजिकानां तत्र अविद्यमानोऽपि सामाजिकानां वासनया जर्यमाणः सामाजिकानां कश्चन वासना भवति यथार्थकाव्यानां सर्वेषाम् अवलोकनेन काचित् वासना भवति पूर्ववासना इति वदन्ति किल वासना नाम कन्नडभाषया वासनेन सा वासना भवति तस्मात् कारणात्
संस्कृतशब्दः
आम् तेन अयं रसः चर्यते वासनारूपेण वासना नाम संस्कारः इत्यर्थः पूर्ववासना पूर्वकश्चन संस्कारः सः अत्र इदानीं यद्यपि नास्ति चेदपि चर्यते इति शीशणकुकः वदति भट्टलोलटस्य मतः किञ्चित् भिन्नः शीशणकुकस्य मतः किञ्चित् भिन्नः भट्टलोलटस्य मतं स्मर्तं भवति चित्रतुरः न्यायः स्मर्तते
एतस्य मते श्लोकद्वयमस्ति. श्लोकद्वयमस्ति नटः शिक्षाभ्यासं सर्वं कृतवान् भवति, तद्दर्शनेन सामाजिकः एतत् सर्वं कृत्वा अविद्यमानमपि चर्यते इति स्थितिः. पुनः अन्यत् मतद्वयमस्ति अग्रिमपक्षः.
भट्टनायकस्य अभिप्रायः अस्ति, अनन्तरम् अन्तिमम् एतत्.